ॐ नमो भगवते वासुदेवाय। अथ नवमोऽध्यायः। श्रीशुक उवाच। अथ कस्यचिद्विजवरस्याङ्गिरः प्रवरस्य शमदमतपःस्वाध्यायाध्ययनत्यागसन्तोषतितिक्षा प्रश्रयविज्ञानसूयात्मज्ञानानन्दयुक्तस्यात्मसदृश श्रुतशीलाचाररूपौदार्यगुणा नवसौदर्या अङ्गजा बभूवुर्मिथुनं च यवीयस्यां भार्यायाम्। यस्तु तत्र पुमांस्तं परमभागवतं राजर्षिप्रवरं भरतमुत्सृष्टमृगशरीरं चरमशरीरेण विप्रत्वं गतमाहुः। तत्रापि स्वजनसङ्गाच्च विषमुद्विजमानो भगवतः कर्मबन्धविध्वंसनश्रवणस्मरणगुणविवरणचरणारविन्दयुगलं मनसा विदधतात्मनः। प्रतिघातमाशङ्कमानो भगवदनुग्रहेणानुस्मृतस्वपूर्वजन्मावलिरात्मानमुन्मत् जडान्धवधिरस्वरूपेण दर्शयामास लोकस्य। तस्यापि हवात्मजस्य विप्रः पुत्रस्नेहानुबद्धमना आसमावर्तनात् संस्कारान् यथोपदेशं विदधान उपनीतस्य च पुनः शौचाचमनादीन् कर्मनियमाननभिप्रेतानपि समशिक्षयदनुशिष्टेन हि भाव्यं पितुः पुत्रेणेति। स चापि तदुह पितृसन्निधावेव सधृचीनमिव स्म करोति छन्दांस्यध्यापयिष्यन् सह व्याहृतिभिः स प्रणवशिरस्त्रिपदीम् सावित्रीम् ग्रैस्म वासन्तिकान् मासानधीयानमप्यसमवेतरूपम् ग्राहयामास एवम् स्वतनुजात्मन्यनुरागावेशितचित्तः शौचाध्ययनव्रतनियमगुर्वनलशुश्रूषणाद्यौपकुर्वाणककर्माण्यनभियुक्तान्यपि समनुसृष्टेन भाव्यमित्यसदाग्रहः पुत्रमनुशास्य स्वयं तावदनधिगतमनोरसः। कालेनाप्रमत्तेन स्वयं गृह एव प्रमत्त उपसंहृतः। अथ यवीयसी द्विजसति स्वगर्भजातं मिथुनं सपत्न्या उपन्यस्य स्वयमनुसंस्थया पतिलोकमगात्। पितर्युपरते भ्रातर एनमतत्प्रभावविदस्त्रय्याम् विद्यायामेव पर्यवसितमतयो न परविद्यायाम् जडमतिरिति भ्रातुरनुशासननिर्बन्धान्यवृत्सन्त। स च प्राकृतैर्द्विपदपशुभिरुन्मत्तजडबधिरेत्यभिभाष्यमाणो यदा तदनुरूपाणि प्रभाषते। कर्माणि च स कार्यमाणः परेच्छया करोति विष्टितो वेतनतो वा याच्यया यदृच्छया वोपसादितमल्पम् बहुमृष्टम् कदन्नम् वाभ्यवहरति परम् नेन्द्रियप्रीतिनिमित्तम् नित्यनिवृत्तनिमित्तस्वसिद्धविशुद्धानुभवानन्दस्वात्मलाभादिगमः सुखदुःखयोर्द्वन्द्वनिमित्तयोरसम्भावितदेहाभिमानः शीतोष्णवातवर्षेषु वृष इवानावृताङ्गः पीनः संहननाङ्गः स्थण्डिलसंवेशनानुन्मर्दना मज्जनरजसा महामणिरिवानभिव्यक्तब्रह्मवर्चसः कुपटावृतकटिरुपवीते नोरुमषिणा द्विजातिरिति ब्रह्मबन्धुरिति संज्ञया तज्ज्ञजनावमतो विचचार। यदा तु परत आहारम् कर्मवेतनत ईह्यमानः स्वभ्रातृभिरपि केदारकर्मणि निरूपितस्तदपि करोति किन्तु न समम् विषमम् न्यूनमधिकमिति वेदकणपिण्या कफलीकरण कुल्माशस्थालीपुरीषादीन्यप्यमृतवदभ्यवहरति। अथ कदाचित् कश्चित् वृषलपतिर्भद्रकाल्यै पुरुषपशुमालपतापत्यकामः। तस्य दैवमुक्तस्य पशोः पदवीम् तदनुचराः परिधावन्तो निशीथसमये तमसावृतायामनधिगतपशव आकस्मिकेन विधिना केदारान् वीरासनेन मृगवराहादिभ्यः संरक्षमाणमङ्गिरः प्रवरसुतमपश्यन् अथ त एनमनवद्य लक्षणमवमृश्य भर्तृकर्मनिष्पत्तिम् मन्यमाना बद्ध्वा रशनया चण्डिकागृहमुपनिन्युर्मुदा विकसितवदनाः। अथ प्रणयस्तम् स्वविधिनाभिषिच्याह तेन वाससाच्छाद्य भूषणालेपस्रक्तिलकादिभिरुपस्कृतम् भुक्तवन्तम् धूपदीपमाल्यलाजकिसलयाङ्कुरफलोपहारोपेतया वैशससंस्थया महता गीतस्तुतिमृदङ्गपणवघोषेण च पुरुषपशुम् भद्रकाल्याः पुरुत उपवेशयामासुः। अथ वृषलराजपणिः पुरुषपशोरसृगासवेन देवीम् भद्रकालीम् यक्ष्यमाणस्तदभिमन्त्रितमसिमतिकरालनिशितमुपाददे इति तेषाम् वृषलानाम् रजस्तमः प्रकृतीनाम् धनमदरज उत्सिक्तमनसाम् भगवत्कलावीरकुलम् कदर्थीकृत्योत्पथेन स्वैरम् विहरताम् हिंसाविहाराणाम् कर्मातिदारुणम् यद्ब्रह्मभूतस्य साक्षात् ब्रह्मर्षिसुतस्य निर्वैरस्य सर्वभूतसुहृदः सूनायामप्यननुमतमालम्भनम् तदुपलभ्य ब्रह्म तेजसाति दुर्विषहेण दण्डयमानेन वपुषा। सहसोच्चचाट सैव देवी भद्रकाली वृषममर्षरोषा वेषरभस विलसित भ्रुकुटि विटप कुटिल दंष्ट्रारुणे क्षणाटोपाति भयानकवदन हन्तुकामे वेदम् महाट्टहासमतिसंरम्भेण विमुञ्चन्ति तत उत्पत्त्य पापीयसाम् दुष्टानाम् तेनैवासिना विवृक्नशीर्ष्णाम् गलात्स्रवन्तमसृगासवमत्युष्णम् सह गणेन निपीयातिपानमदविह्वलोच्चैस्तराम् स्वपार्षदैः सह जगौ ननर्त च विजहार च शिरः कन्दुकलीलया एवमेव खलु महदभिचारातिक्रमः काट्स्न्येनात्मने फलति न वा एतद् विष्णुदत्तमहदद्भुतम् यदसम्भ्रमः स्वशिरश्छेदन आपतितेऽपि विमुक्तदेहाद्यात्मभावसुदृढहृदयग्रन्थीनाम् सर्वसत्त्वसुहृदात्मनाम् निर्वैराणाम् साक्षात् भगवता निमिषारिवरायुधेनाप्रमत्तेन तैस्तैर्भावैः परिरक्ष्यमाणानाम् तत्पादमूलमकुतश्चियमुपसृतानाम् भागवतपरमहंसानाम् ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् पञ्चमस्कन्धे जडभरतचरिते नवमोऽध्यायः श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।